धारयन्तं हृदि ब्रह्म तत्त्वं भावब्धो जनानां भयं भञ्जयन्तं सतां नन्दयन्तं धियं प्रेरयन्तं महायोगिराजं भजे सन्तरामम् धारयन्तं हृदि ब्रह्म तत्त्वं भावब्धो जनानां भयं भञ्जयन्तं सतां नन्दयन्तं धियं प्रेरयन्तं महायोगिराजं भजे सन्तरामम् शरच्चन्द्रवक्त्रं लसत्पद्मनेत्रं महायोगिराजं भजे सन्तरामम् वरेण्यं शरण्यं चिदानन्दरूपं दयालुं विशालं गुरुं ज्ञानमूलम् कृपासागरं तं शुभं लोकनाथम् महायोगिराजं भजे सन्तरामम् यतीन्द्रं मुनीन्द्रं व्रतेशं जनेशं महेशं महान्तं नतोऽहं नतोऽहम् सुधासाररूपं सदानन्दरूपं महायोगिराजं भजे सन्तरामम् सुभालं विशालं गले दिव्यमाला शिवं दिव्यरूपं विशालं च वक्षो महायोगिराजं भजे सन्तराम चित्तं वरिष्ठं सुपूज्यम् शुभं मङ्गलं वै लसच्चन्द्ररूपं महायोगिराजं भजे सन्तराम सौम्य रूपम् प्रभाते हृदि ज्ञान निष्ठं महायोगिराजं भजे संतरामं शुभांगं सदा ज्ञान गम्यं समाधौ सुशांतं विभुं व्यापकं तं महायोगिराजं भजे संतरामं सतां नित्यसेवी सुविद्यानुरागी प्रदानै प्रसिद्धो कलो धर्मरूपम् समाधौ सदा दिव्यरूपं प्रसन्नम् महायोगिराजं भजे संतरामं महायोगिराजं भजे संतरामं महायोगिराजं भजे संतरामं स्तोत्रं श्री संतरामस्य कलो कल्याणकारकम् भक्त्यायो हि पठे नित्यम् सयाति परमं गतिम्।